इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। देशस्य पेट्रोलियम् एलपीजी इत्येतयोः आपूर्तिस्थितिः पूर्णतया सुरक्षिता नियन्त्रिता च अस्तीति सर्वकारः पुनरुक्तवान्। देशे चतुस्सप्ततिदिवसानां सञ्चयक्षमता अस्ति। पेट्रोलियम् प्राकृतिक गैस इत्यस्य मन्त्रालयः अवदत् यत् सर्वेषु इन्धननिर्गमस्थानेषु पर्याप्त आपूर्तिः अस्ति। देशे कुत्रापि पेट्रोल डीजल एलपीजी इत्येतेषाम् अभावः नास्ति। मन्त्रालयः ह्यः सूचितवान् यत् भारतस्य देशीय शोधनागारस्य उत्पादनं 40% वर्धितमस्ति, येन प्रतिदिनं एलपीजी इत्यस्य उत्पादनं 50,000 मैट्रिक टन परिमितं यावत् भवति, यद्धि देशस्य आवश्यकतायाः 60% अधिकम् अस्ति। प्रशासनम् अवदत् यत् प्रायः पूर्णैकमासस्य आपूर्तिः दृढतया व्यवस्थिता अस्ति। संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् पश्चिम एशिया संकटकाले अपि प्रधानमन्त्रिणः नरेन्द्र मोदीवर्यस्य नेतृत्वे भारतस्य अर्थव्यवस्था आत्यन्तिकतया उत्तमं कार्यं करोतीति। ह्यः नवदेहल्याम् एकेन वार्तावाहिन्याः शिखरसम्मेलनं सम्बोधयन् श्री रिजिजुः अवदत् यत् भारतं स्वस्य ऊर्जा संसाधनानां कृते अन्यदेशान् आश्रयति, परमपि स्वस्य ऊर्जा संकटकालस्य निर्वहणं सम्यक् करोति। श्री रिजिजुः इत्यपि अधोरेखितवान् यत् भारतीय नौकाः होर्मुज जलसन्धि मार्गेण सुरक्षितरूपेण निरन्तरं गच्छन्तीति।
If our ships are passing through Strait of Hormuz,
हमारे कुछ जहाज होर्मुज पार कर चुके हैं और कुछ करने वाले हैं। ये भारत की स्थिति को दर्शाता है। भारत कुछ चुनिंदा देशों में शामिल हैं जो सभी पक्षों से बात कर सकता है। भारत के प्रधानमंत्री नरेंद्र मोदी ने अमेरिका के राष्ट्रपति ट्रंप, इजराइल के प्रधानमंत्री, ईरान के राष्ट्रपति और खाड़ी देशों के प्रमुखों से बात की है। भारत चुनौतियों के बावजूद बहुत ही बेहतर स्थिति में है।
विदेश कार्यमंत्री डॉ एस जयशंकर ह्यः जी सप्तेत्यस्य विदेश मंत्रिमंडलस्य सत्रे यूएनएससी इत्यस्य परिष्काराणां शान्तिरक्षाकार्याणां सुव्यवस्थिततायाः मानवीय आपूर्ति श्रृंखलायाः निर्माणस्य च अत्यावश्यकतायाः विषये अवधानं दत्तवान्। फ्रांस देशस्य अब्बाए देश वाक्स दे सेर्ने इत्यत्र जी सप्त FMM इति आयोज्यते। डॉ जयशंकर सामाजिक प्रसार माध्यमे अवदत् यत् सः वैश्विक शासन परिष्कारेति विषये अवदतीति। पश्चिम एशिया संघर्ष गत कतिपयेषु होरासु तीव्र अभवत्, यत्र इजराइल देश ईरान देशस्य अन्तः नूतनानि आक्रमणानि सम्पूर्णं लेबनान देशं यावच्च विस्तारयदिति सूचनास्ति। इजराइल देशस्य अधिकारिणः अवदन् यत् तेषां सैनिकाः मध्य ईरानस्य इस्फहान नगरे आक्रमणानि कृतवन्तः इति। अपि च ईरान देशस्य इस्लामिक रिवोल्यूशनरी गार्ड कॉप्स इत्यस्य नौसेना सेनापतिः अली रेजा तंगसीरी इत्येषः अन्यैः वरिष्ठैः नौसेनाधिकारिभिः सह रात्रौ आक्रमणे मारितः इति उक्तवन्तः। अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन ईरान देशस्य होर्मुज जलसन्धिम् उद्घाटयितुम् एप्रिल मासस्य 6 दिनांकपर्यन्तस्य समयसीमा विस्तारिता अस्ति। डोनाल्ड ट्रम्प इत्यनेन सामाजिक माध्यमे एतद् वक्तव्यं दत्तम्। सः अवदत् यत् सः ईरान देशस्य ऊर्जा केन्द्राणां विस्फोटनं स्थगयिष्यतीति। नेपाल देशस्य राष्ट्रिय स्वतन्त्रेति दलस्य नेता बालेन्द्र शाहः अद्य प्रधानमन्त्रिरूपेण शपथग्रहणं करिष्यति। शपथग्रहणं काठमाण्डू नगरस्य शीतल निवास नगरस्य राष्ट्रपति कार्यालये स्थानीय समयानुसारं अपराह्णे 12:30 प्रायः भविष्यति। बालेन्द्र शाहः ह्यः आरएसपी इति राष्ट्रिय संसदीय दलस्य नेतृत्वेन निर्वाचितः, येन नेपालस्य आयुषा कनिष्ठतमः निर्वाचितः प्रधानमन्त्री भविष्यति इति निश्चितमस्ति। उत्तरप्रदेशे अद्य रामनवमी पर्व धार्मिकोत्साहेन आचर्यते। उत्सवस्य प्रमुखम् आकर्षणम् अयोध्यायाम् अस्ति, यत्र श्रीरामजन्मभूमि मन्दिरे सूर्यस्नानं भविष्यति, यस्य प्रत्यक्ष प्रसारणं दूरदर्शनेन भविष्यति। दक्षिण एशियन फुटबॉल फेडरेशन इत्यस्मिन् SAFF अंडर 20 चैम्पियनशिप इति क्रीडायां भारतं ह्यः मालदीव देशस्य माले नगरस्य नेशनल फुटबॉल क्रीडांगणे पाकिस्तान देशं विरुध्य 3-0 विजयं प्राप्य स्वस्य अभियानस्य आरम्भम् अकरोत् इति वार्ताः।